इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अद्य संत गुरोः रविदासस्य 49.6-तमस्य जन्मदिवसस्यावसरे पंजाब राज्यं गमिष्यति। श्रीमोदी आदमपुर विमानस्थानकं प्रति गमिष्यति, यत्र सः विमानस्थानकस्य नाम परिवर्त्य श्रीगुरु रविदास जी विमानस्थानकेति नूतनेन नाम्ना अलंकृतस्य विमानस्थानकस्य उद्घाटनं करिष्यति। प्रधानमन्त्री कार्यालयेन उक्तं यत् आदमपुर विमानस्थानकस्य नामकरणं पूज्य संतस्य समाजपरिष्कारस्य च सम्मानं करोति, यस्य समानतायाः, अनुकम्पायाः, मानवीय गौरवस्य च उपदेशाः भारतीय समाजं निरन्तरं प्रेरयन्ति। प्रधानमन्त्री लुधियाना नगरस्य हलवारा विमानस्थानकस्य टर्मिनल भवनस्यापि उद्घाटनं विधास्यति। नूतनं भवनं राज्यस्य कृते नूतनं द्वारं स्थापयिष्यति, येन लुधियाना नगरं समेत्य तत्परितः औद्योगिक कृषि अन्तर्भूमेः पोषणं करोति। हलवारा नगरे सामरिक दृष्ट्या महत्वपूर्णं भारतीय वायुसेनायाः केन्द्रमपि अस्ति। वित्तमन्त्री निर्मला सीतारामन इत्येषा अद्य लोकसभायां 26,000-27,000-तमवर्षयोः अर्थसंकल्पनापत्रं प्रस्तोष्यति। इदं हि नरेन्द्रमोदी प्रशासनस्य तृतीयकार्यकालस्य तृतीयं अर्थसंकल्पनापत्रं भविष्यति इति। 19,000-तमे वर्षे पदभारग्रहणानन्तरं वित्तमन्त्रिणः निर्मला सीतारामन इत्येतस्याः इदं हि सततं नवमं अर्थसंकल्पनापत्रं भविष्यति। लोकसभायां पत्रस्य प्रस्तुतेः अनन्तरं अर्थपत्रस्यास्य एका प्रति राज्यसभायामपि प्रस्तोष्यते। विदेशमन्त्री डॉ एस जयशंकरः उक्तवान् यत् आतंकवादं विरुध्य नूतन शून्य सहिष्णुता इति अपरिवर्तनीयः सर्वस्वीकारकार्यः मानदण्डः भवेत्। नवदिल्ल्यां ह्यः प्रवर्तमाने द्वितीय भारत अरब विदेशमन्त्रिणाम् उपवेशने स्वकीये प्रारम्भिक भाषणे डॉ जयशंकरः अवदत् यत् आतंकवादस्य सर्वरूपाणि अभिव्यक्तिः च भारत अरब राष्ट्रयोः कृते सामान्या विभीषिका अस्ति। पारेसीमम् आतंकवादः विशिष्टरूपेण अस्वीकार्यः अस्ति, यतः एषः अन्ताराष्ट्रियसम्बन्धानां, कूटनीतेः च मूलसिद्धान्तानाम् उल्लङ्घनं करोति इति सः अकथयत्। सः इत्यपि अवदत् यत् आतंकवादेन पीडितस्य समाजस्य स्वकीयाः आत्मरक्षायाः मौलिकाधिकारः अस्ति, तथा च प्रबुद्धसमाजः अवश्यमेव तस्य अधिकारस्य प्रयोगं करिष्यति। सः अस्य वैश्विकप्रकोपस्य निवारणार्थम् अन्ताराष्ट्रियसहयोगस्य सुदृढीकरणस्य आवश्यकतायाः च विषये अवधानं प्रदत्तवान्। भारत ऋतुविज्ञानविभागेन IMD इत्यनेन अद्य पूर्वीराजस्थानस्य पश्चिममध्यप्रदेशस्य च पृथक् पृथक् स्थानेषु वृष्टेः नारङ्गवर्णीया सञ्चेतना प्रसारिता अस्ति। ऋतुविभागेन पूर्वी उत्तरप्रदेशे शैत्यदिवसस्य स्थितिः, ओडिशाराज्ये सघननिहारस्य स्थितेः च पूर्वानुमानं प्रकटितमस्ति। विभागेन उक्तं यत् आगामिदिनद्वयोः दिल्ली, चण्डीगढ़, हरियाणा, पंजाब, उत्तराखण्ड, हिमाचलप्रदेश, पश्चिम उत्तरप्रदेशेषु च विद्युद्योतनेन सह मेघगर्जनं, तीव्रवायुः च प्रचलिष्यति। पुरुषाणां क्रिकेट क्रीडायां गतसायं तिरुवनन्तपुरम नगरस्य ग्रीनफील्ड अन्ताराष्ट्रिय क्रीडांगणे पंचम्यां अन्तिमायां च 20-प्रति-20 अन्ताराष्ट्रिय क्रीडायां भारतीय क्रिकेट दलेन न्यूजीलैंड दलं 44 धावनांकै पराजितम्। अनेन विजयेन भारतेन 4-1 इत्यंकांतरालेन श्रृंखला विजिता। प्रियाः श्रोतारः, संस्कृत जगता सम्बद्धैः विभिन्नैः क्रियाकलापैः सम्वलितस्य साप्ताहिकीति विशिष्ट कार्यक्रमस्य प्रसारणम् अद्य आकाशवाण्याः FM गोल्ड प्रवाहिकातः भविष्यति। इति वार्ताः।